सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र भावे कर्मणि प्रयोगः, किन्तु एषः विषयः तत्र तादृशः दीर्घः अस्ति, अतः तत्र मध्ये मध्ये विरामः अपेक्षितः अस्ति इति कृत्वा अतः अद्य तत्र वयम् एकां कथां पठामः। तत्र सरला कथा एव अस्ति, किन्तु तत्र सर्वेभ्यो रोचते इति मन्ये, पश्यामः। शोभा भगिनी नमस्कारः।
नमस्ते महोदय।
नमस्कारः भगिनी। तत्र कथां प्राप्तवती खलु भगिनी?
आं प्राप्तवती।
अस्तु समीचीनम्। अस्तु तर्हि हर्षदा भगिनी भवती एव आरम्भं करोति वा तर्हि?
किं कथापठनस्य आरम्भं?
कथा एव कुर्मः।
अस्तु अस्तु, करोमि करोमि। पूर्वं कश्चन विग्रहकारः आसीत्। सः स्वपुत्रम् अपि उत्तम विग्रहकारं कर्तुम् इच्छति स्म। अतः सः महताश्रमेण पुत्रं विग्रहनिर्माणकलां बोधितवान्। पुत्रेण अपि मूर्तिनिर्माणकार्यम् आरब्धम्। पुत्रेण निर्मिताः विग्रहाः सुन्दराः उत्कृष्टाः च भवन्ति स्म। अरे बाबरे, व्हाट हैपेंड। जनाः तेन निर्मितस्य विग्रहस्य प्रशंसाम् आरब्धवन्तः। अचिरात् एव तस्य कीर्तिः सर्वासु दिक्षु प्रसृता।
समीचीनं भगिनी। अस्तु अग्रे तत्र
धन्यवादः।
धन्यवादः भगिनी। अग्रे ललिता भगिनी अग्रे।
महोदय, किन्तु जनकः तेन निर्मितेषु विग्रहेषु कमपि दोषं पश्यति स्म। जनकस्य मुखात् प्रशंसावचनं श्रोतव्यम् एव इति निश्चयं कृत्वा पुत्रः अधिकया श्रद्धया विग्रहनिर्माणं कृतवान्। तस्मात् तस्य कौशलं पूर्वापेक्षया अपि प्रवृद्धम्। अतिसूक्ष्माणाम् अंशानां विषये अपि सः अवधानं दत्त्वा विग्रहं निर्माति स्म। तथापि जनकस्य मुखात् एकमपि प्रशंसावचनं न निर्गच्छति स्म। बहुधा प्रयत्नं कृतवान् अपि सः स्वस्य इच्छायाः सफलतां न प्राप्तवान्।
समीचीनम्। अस्तु धन्यवादः भगिनि। अस्तु अग्रे शोभा भगिनी।
आं महोदय, एकदा पुत्रः महता परिश्रमेण एकं विग्रहं निर्मितवान्। मित्रद्वारा तं विग्रहं जनकस्य समीपं प्रेषितवान्। जनकस्य प्रतिस्पन्दं ज्ञातुं रहस्यस्थले स्थितवान् च। जनकः तं विग्रहं दृष्ट्वा महता सन्तोषेण, अहो परमसुन्दरं विग्रहः एषः, एतं निर्मितवान् कलाकारः निश्चयेन अस्ति उत्कृष्टः, एतादृशी प्रतिभा लोके विरला एव इति प्रशंसा वचनानि उक्तवान्।
समीचीनम्। अस्तु अग्रे नरेश महोदय।
एतत् श्रुत्वा नितरां सन्तुष्टः पुत्रः रहस्यस्थानात् बहिः आगत्य सगर्वम् अवदत्, जनक एतस्य विग्रहस्य निर्माणम् अहमेव कृतवान्। अद्य अनन्यगतिकतया भवान् प्रशंसां कृतवान् एव। उत्कृष्टता कारणतः भवान् अत्र एकमपि दोषं दर्शयितुं न शक्तः।
किञ्चित् अग्रेपि महोदय पठतु।
आम् आं महोदय, पुत्रस्य मुखं निर्मिषे निर्निमेषं दृष्ट्वा जनकः क्षणात् अनन्तरं स विषादम् उक्तवान्, वत्स सर्वदा स्मर्तव्यं यत् गर्वः उन्नतेः बाधकः इति। सः सफलताद्वारान् सर्वाणि पिदधाति। अहम् एतावत् पर्यन्तं प्रशंसां न कृतवान् इति कारणतः भवतः गुणवत्तायाः वर्धनं जातम्।
तावत्पर्यन्तं धन्यवादः महोदय। अस्तु अग्रे, धन्यवादः महोदय। ललिताकुमारी भगिनी अग्रे पठति वा?
आं महोदय।
तदर्थं
भवान् अहोरात्रं परिश्रमं कृतवान्, एतस्मात् कारणात् भवतः कौशलं प्रवृद्धं, मम साकाशात् प्रशंसां प्राप्तुम् एव भवान् यदि अद्य विग्रहं कृतवान् तर्हि निश्चितं यत् एतत् भवतः अभिवर्धनस्य अवरोधाय इति। जनकस्य वचनस्य श्रवणात् पुत्रस्य लज्जा अभवत्, स्वस्य दोषं ज्ञात्वा सः जनकं क्षमां प्रार्थितवान्।
अस्तु समीचीनं भगिनि, धन्यवादः। अस्तु तत्र कथायाः अवगमनं जातम् इति मन्ये, किन्तु तत्र पङ्क्तिशः अपि परिशीलयामः यत् तत्र ये तत्र व्याकरणांशाः सन्ति तानपि तत्र परिशीलयामः। तर्हि तत्र शोभा भगिनी आरम्भं करोति वा?
आम् महोदय। पूर्वं कश्चन विग्रहकारः आसीत्, सः स्वपुत्रम् अपि उत्तमविग्रहकारं कर्तुम् इच्छति स्म, अतः तावत् तत्र अस्तु। पूर्वं कश्चन विग्रहकारः आसीत्, तत्र कश्चन इति प्रयोगः कः अपि चन इति पूर्वम् इति अव्ययपदं तत्र आसीत् इति अस्धातुः लङ्लकारे। सः स्वपुत्रम् इत्युक्ते स्वस्य पुत्रम् इति स्वा इति प्रयोगः समस्तपदे तत्र अपि उत्तमविग्रहकारम् इति तत्र तावदेव। अपि च कर्तुम्
इत्युक्ते किम्? अपि इत्युक्ते
अपि स्वपुत्रम् अपि इत्युक्ते तत्र सः स्वयम् उत्तमविग्रहकारः अस्ति एव, अतः स्वपुत्रम् अपि तादृशः तादृशः विग्रहकारः भवेत्, स्वपुत्रः अपि तादृशः विग्रह उत्तमविग्रहकारः भवेत् इति तस्य आशयः आसीत् अथवा आशा आसीत्। अपि च कर्तुम् इति तत्र तुमुन् प्रयोगः, उत्तमविग्रहकारं कर्तुं तत्र कर्मपदं भवति तस्य पूर्वम्, अतः तत्र उत्तमविग्रहकारम् इति कर्मपदम्। इच्छति स्म, स्म इति प्रयोगः तत्र, यतोहि सः नितराम् इच्छति अथवा पुनः पुनः तस्य इच्छा भवति, एकवारम् इति न, पुनरावर्तनं भवति इति कृत्वा तत्र स्म इत्यस्य प्रयोगः।
अस्तु समीचीनं भगिनि, अग्रे।
अतः सः महता श्रमेण पुनः पुत्रं विग्रहनिर्माणकलां बोधितवान्, अतः सः तत्र महता इति तृतीय महता श्रमेण तृतीया विभक्ति, तत्र विशेषविशेषणं श्रमेण इत्यस्य महता इति विशेषणं, तत्र महत् इति पदस्य महता इति भवति।
हा तत्र
भवान् इत्यस्य भवत्
प्रथमविभक्तौ रूपं किम्?
महत् तत्र महान् महान्तौ महान्तः इति भवति महोदय।
समीचीनं, तत्र
तत्र दीर्घ
समीचीनं, महान् श्रमः इति
महान् श्रमः इति किन्तु श्रमः इति भवति
किन्तु प्रातिपदिकं महत् इति कृत्वा
महत् इति
श्रमेण समीचीनं
महता श्रमेण पुत्रि
तत्र माध्यमं नाम तेन तत्र तेन कारणेन तत्र तादृशं सः तादृशः तत्र श्रमः तत्र आसीत् अस्तु अपि तत्र सः महता श्रमेण किं कृतवान् सः
सः पुत्रं विग्रहनिर्माणकलां बोधितवान्
सः
स्वस्य विग्रहनिर्माणकला आसीत् अस्ति तं महताश्रमेण पुत्रं बोधितवान्
विग्रहनिर्माण कथं विग्रहस्य निर्माणं भवति इति तस्मिन् विषये कलां कला या अस्ति तां कलां सः बोधितवान् अपि तत्र अत्र एकः अंशः विशेषांशः अस्ति नाम तत्र बोधितवान् इति क्रियापदं कर्मपदं किम् अस्ति
बोधितवान् इत्युक्ते तत्र पुत्रं विग्रहनिर्माणकलां बोधितवान् इति पुत्रं बोधितवान् इति भवति अपि च विग्रहनिर्माणकलाम् इति अपि तत्र द्वितीयविभक्तौ द्वे पदे बुद्ध इति धातुः द्विकर्मकधातुः
इति भाति खलु
भाति
सत्यं सत्यं तत्र तत्र कोऽपि स्मरति वा तत्र द्विकर्मकः धातवः तत्र मूलद्विकर्मकः धातवः तत्र
षोडशधातवः
हा तत्र पेज् 115 गीतासोपाने द्वितीयभागे अस्ति तत्र यदस्ति तस्य तत्र यदस्ति समानार्थकधातवः अपि तत्र द्विकर्मकः भवन्ति खलु
तत्र याचति ऋणति ब्रवीति इति वदति इति भवति पचति पृच्छति शास्ति मुष्णाति कर्षति तत्र वहति तत्र तु तत्र बोधने इति नास्ति किन्तु शास्ति इति तु अन्य अर्थः अन्यः
प्रायशः ब्रवीति इति तस्मिन् अन्तर्भूतः इति वा इति चिन्तनं
ब्रवीति इति वदति अपि भवति इति भवति किन्तु तत्र बुद्ध बोधने इति भवति वा महोदय तत्र तदपि
बोधयति तत्र निच्छति अस्ति खलु
किन्तु बोधितवान् ओ क्षमताम्
बुद्धि इति धातुः किन्तु णिच् अस्ति खलु
णिच् अस्ति चेत् सत्यं तत्र कर्मपदद्वयं भवति एव बोधि इति भवति बुद्ध इति
किन्तु तत्र द्विकर्मक नाम तत्र तत्र क्रिया तत्र कर्ता द्वयम् अस्ति नाम
प्रयोजक अपि प्रयोज्यकर्ता इति तत्र अहं तस्य किं
अग्रे चिन्तयामः भगिनि तत्र कथां समापयामः तदनन्तरं श्लोकः
तत्र बोधितवान् इति तत्र ऐडेण्टिफै न कृतवती महोदय तत्र निजन्तप्रयोगः इति बोधि इति
द्विकर्मक इति भाति खलु यतोहि कं किम् इति अस्ति अतः तत्र प्रायशः तत्र द्विकर्मक इति अर्थे अस्ति इति मन्ये अस्तु
अपि च तत्र पुत्रेण अपि मूर्तिनिर्माणकार्यम् आरब्धम्
सः अपि कलां तत्र पठितवान् नाम तस् कलां तत्र सिद्धिं कलायाः विषये सिद्धिं प्राप्त्वा
प्राप्त्वा
मूर्तिनिर्माणकार्यं सः
निर्माणमपि आरब्धवान् पुत्रः अपि च पुत्रेण निर्मिताः विग्रहाः सुन्दराः उत्कृष्टाः च भवन्ति स्म सः न केवलं विग्रहनिर्माणम् अथवा मूर्तिनिर्माणं किं तस्य अर्हता प्राप्तवान् किन्तु तत्र अतीव उत्तमरीत्या निर्माणं कर्तुमपि अर्हः जातः सः केवलं
अर्हता जाता
अर्हता जाता
तत्र निपुणता नाम तत्र निपुणतां प्राप्तवान् सः
निपुणता अथवा कुशलता इति अपि
सः कुशलता
सुन्दराः उत्कृष्टाः च भवन्ति स्म यतोहि तस्य कुशलता तादृशी आसीत्
सुन्दराः इत्युक्ते नाम द्रष्टुं तत्र दर्शनविषये सुन्दराः उत्कृष्टः नाम तत्र कलाविषये नाम तत्र
कलाविषये नैपुण्यम्
अपि तत्र
नैपुण्यमपि आसीत्
अतः द्रष्टुमपि सुन्दरम् अपि ये तत्र कलां जानन्ति ते अपि एतत् दृष्ट्वा अस्तु अस्तु एषः एतत् अत्र कृतवान् तादृशं कृतवान् इति ते अपि तत्र किमपि पश्यन्ति
इत्युक्ते तत्र कलायाः नियमाः ये सन्ति तानपि उत्तमरीत्या ज्ञात्वा तत्र तेषाम् उपयोगं कृतवान्
इति समीचीनम् अग्रे
जनाः तेन निर्मितस्य विग्रहस्य प्रशंसाम् आरब्धवन्तः अतः तत्र जनाः तेन निर्मितस्य विग्रहस्य तत्र निर्मितस्य विग्रहस्य इति विशेषविशेषणं विग्रहस्य इति विशेष्यं निर्मितस्य इति विशेषणं भवति तत्र प्रशंसाम् इत्युक्ते तत्र प्रशंसा इति अन्यत् तत्र पर्यायवाचकपदं किं तत्र किं वक्तुं शक्नुमः तत्र प्रशंसा इति नादना मनसि नास्ति प्रशंसां
करणीयम् इति तत्र श्लाघनं
श्लाघनं आरब्धवन्तः तस्य कलायाः
तत्र क्रियापदं किं कर्तृपदं किं तस्मिन् वाक्ये
तत्र आरब्धवन्तः तत्र आरब्धवन्तः इति तवतु प्रत्ययान्तपदम् आरब्धवन्तः सन्ति इति भवति वा तत्र
सन्ति
तत्र तत्र तव तु भूतकाले इति
सर्वं भूतकाले एव अस्ति खलु अतः आसन्
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 आरब्धवन्तः आसन्
के आरब्धवन्तः आसन्
जनाः इति जनाः जनाः आरब्धवन्तः
अग्रे
अचिरात् एव तस्य कीर्तिः सर्वासु दिक्षु प्रसृता अतः तत्र शीघ्रमेव अचिरात् तत्र चिरात् इत्युक्ते बहुकालात् अनन्तरम् इति तत्र अचिरात् इति तत् नै समासः नै तत्पुरुषसमासः अतः अचिरात् एव तस्य कीर्तिः इति तत्र स्त्रीलिङ्गे सर्वासु अतः तत्र
कस्य कीर्तिः
पुत्रस्य कीर्तिः
पुत्रस्य कीर्तिः
पुत्रस्य कलायाः कीर्तिः कीर्तिः इति स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र सर्वासु दिक्षु न तत्र दिक् इति स्त्रीलिङ्गे अस्ति
समीचीनम्
अतः स्त्रीलिङ्गे अस्ति अतः सर्वासु दिक्षु इति भवति
सप्तमी बहुवचनं
सप्तमी बहुवचने अत्र दिक्षु तत्र दिक् योगः मूर्धन्यषकारः आगच्छति चेत् ककार मूर्धन्यषकारयोः संयुक्ताक्षरं तादृशम् अस्ति दिक्षु इति
समीचीनं
प्रसृता तत्र कीर्तिः स्त्रीलिङ्गे अतः प्रसृता इति स्त्रीलिङ्गे तान्तपदं
विशेषणविशेष्यभावः प्रसृता तप्रत्ययः खलु
तप्रत्ययः कीर्तिः प्रसृता इति
तत्र प्रसृता आसीत् प्रसृता अभवत्
अभवत्
अभवत् इति अस्ति समीचीनं भगिनि उत्तमं
धन्यवादः महोदय
अस्तु समीचीनम् अस्तु अग्रे हर्षदा भगिनि
आं महोदय प्रयत्नं करोमि मम परिसरे दीपावल्याः आचरणं प्रचलति स्म अतः बहवः क्राकर्स्
भगिनि सुप्रभाते एव कुर्वन्ति
आमाम् अत्र तु 615 620 अहं मुम्बैनगरीं वसामि बहवः जनाः क्रेकर्स् चालयति अतः भवानपि शृणोतु वेनेवर् ऐ एम् स्पीकिङ्ग् भवानपि शृणोतु
अस्तु अस्तु एकनिमिष भगिनी हा समीचीनम् एकनिमिष भगिनी सुजाता भगिनी नमस्कारः शुभदा भगिनी नमस्कारः
नमस्कारः महोदय
तत्र कथां पठन्तः स्मः तत्र कथां हा इदानीमेव तत्र ईमेल् द्वारा प्रेषितवान् तत्र प्रशंसा प्राप्त्यर्थम् इति हर्षदभगिनी अग्रे
अस्तु अस्तु किन्तु जनकः तेन निर्मितेषु विग्रहेषु कमपि दोषं पश्यति स्म किन्तु यदा कदा पुत्रः विग्रहं निर्माति तदा जनकः तेषु विग्रहेषु कमपि दोषः सः दर्शयति स्म
हा कोऽपि दोषः अस्ति इति कोऽपि दोषः अस्ति इति सः दर्शयति स्म
दर्शयति स्म
हा नाम तत्र दोषः कुत्र दोषं पश्यति स्म इति नाम दोषः
विग्रहेषु
कुत्र कुत्र
सः पुत्रस्य पुत्र यः विग्रहं निर्माति तत्र
हा नाम
विग्रहे दोषं पश्यति
पुत्रेण निर्मितेषु विग्रहेषु
आम्
तत्र समीचीनं हा तत्र तथैव अस्ति
जनक
इति विशेषणं विग्रहेषु इति विशेष्यं
हा विशेषणविशेषभाव अतः समानविभक्ति समानवचनम्
इति समीचीनं
सप्तमी बहुवचनं
अग्रे
स्थानं दर्शयितुं सप्तमी
हा अधिकरणं नाम
अधिकरणम्
अस्ति दोषः विग्रहेषु अस्ति इति अतः समीचीनं भगिनि सप्तमी ओके अग्रे
जनकस्य मुखात् प्रशंसावचनं श्रोतव्यम् एव इति निश्चयं कृत्वा पुत्रः अधिकया श्रद्धया विग्रहनिर्माणं कृतवान् अत्र अपि अधिकया श्रद्धा शब्दस्य विशेषणम् अधिका तृतीया
समीचीनं
पुत्रः कृतवान् किं कृतवान् विग्रहनिर्माणं कृतवान् पुत्रः
कृतवान् किं विग्रहनिर्माणं कृतवान्
निश्चयं कृत्वा
अपि कथं नाम अधिकया
अधिकया श्रद्धया तत्र तृतीया आवश्यकी आम् अधिकया श्रद्धया किं कृत्वा निश्चयं कृत्वा सः अधिकया श्रद्धया विग्रहनिर्माणं कृतवान् सः
तेन तत्र सः किं निश्चितवान्
सः निश्चितवान् जनकस्य मुखात् अहं प्रशंसां श्रोष्यामि एव
हा प्रशंसावचनम् अहं श्रोष्यामि एव इति सः
श्रोष्यामि एव सः निश्चयं कृतवान्
मया श्रोतव्यमेव इति सः निश्चितवान्
अतः अधिकया श्रद्धया विग्रहनिर्माणं कृतवान्
हा इति अस्तु समीचीनम् अस्तु अग्रे
तस्मात् तस्य कौशलं पूर्वापेक्षया अपि प्रवृद्धं प्रवृद्धम् इति तप्रत्यय कौशलं प्रवृद्धं पूर्व अपेक्षया पुरा सः कुशलः एव आसीत् किन्तु तस्य कौशलं पूर्व अपेक्षया तत्र वृद्धिः अभवत् कौशले
कौशलं वर्धते तत्र
वर्धते
जातं वर्धितम् अभवत् वर्धते समीचीनं तत्र अपि तत्र तस्य नाम पुत्रस्य
कौशलम् आम्
तस्मात् इत्युक्ते कस्मात्
कस्मात् पिता पिता दोषः दर्शयति स्म पिता दोषः दर्शयति स्म
तस्मात् कारणात् इति
तस्मात् कारणात् आमां जनकस्य मुखात् प्रशंसावचनं श्रोतुं तस्य कौशलं पूर्वापेक्षया अपि प्रवृद्धम्
हा नाम अत्र प्रायशः कारणं किम् इत्युक्ते तत्र सः अधिकया श्रद्धया सः विग्रहनिर्माणं कृतवान् खलु अतः
आम् आम् आम्
अतः
अतः
कारणं भवति तत्र अधिका श्रद्धा विग्रहनिर्माणे अधिका श्रद्धा अस्ति अतः तस्य कौशलं पूर्वापेक्षया अपि प्रवृद्धम् इति कारणम् अस्तु समीचीनम् अस्तु अग्रे
अतिसूक्ष्माणाम् अंशानां विषये अपि सः अवधानं दत्त्वा विग्रहं निर्माति स्म जनकस्य मुखात् प्रशंसां वचनं श्रोतुं सः अधिकया श्रद्धया विग्रहनिर्माणं कृतवान् तत्समये सः अतिसूक्ष्मसूक्ष्म अंशानां विषये अपि अवधानं दत्तवान्
तत्र तत्र दत्त्वा विग्रहं निर्माति स्म इति अस्ति नाम तत्र त्वान्त तदनन्तरं निर्माति इति अस्ति नाम तत्र प्रथमतया ध्यानम्
प्रथम अवधानं सः दत्तवान् अनन्तरं सः विग्रहं निर्मितवान्
किन्तु यदि वयं तत्र एकस्मिन् समये नाम तत्र निर्माणसमये एव सः अवधानं ददाति इति वक्तुम् इच्छामः तत्र शत्रुप्रत्ययस्य योजनं कुर्मश्चेत् कीदृशं वाक्यं
सः अवधानं ददत् ददत्
इति प्रातिपदिकं समीचीनम्
आमां प्रातिपदिकमेव चिन्तितवती तदत् द्वितीया आवश्यकी खलु ददन्तं
न
अवधानं सः अवधानम्
एकमेव कर्ता खलु यत्र शत्रन्तप्रयोगः भवति एकः एव कर्ता क्रियाद्वयं भवति अत्र कर्ता कः
सः
पुत्रः समीचीनम्
सः पुत्रः अवधानं ददत् सः
ददन्
न भवति महोदय ददत् एव न जोहोत्यादिगणस्य दाधातु अस्ति
सत्यं सत्यं भगिनि ददन्
ददन् नास्ति ददत् एव जोहोत्यादिगणे नकार न भवति
सत्यं सत्यं भगिनि ददति
अवधानं ददत् सः विग्रहं निर्माति स्म
इति भवति समीचीनम् इदानीं तत्र निर्माणसमये एव सः अवधानं ददाति
तथापि जनकस्य मुखात् एकमपि प्रशंसावचनं न निर्गच्छति स्म सः पुत्रः प्रयत्नं बहवः प्रयत्नाः करोति स्म परन्तु जनकः एकम् अपि प्रशंसावचनं न वदति स्म
पुनः प्रथमवाक्यं भगिनि
पुत्रः वापि कुचितरि समथिङ्ग् ऐ हव् मेस्ड् अप् पुत्रः बहवः प्रयत्नाः करोति स्म
हा तत्र करोति इति तस्य कर्मपदं भवेत् नाम बहून् प्रयत्नान्
आम् क्षम्यतां महोदय बहु भ्रमं भवति बहून् प्रयत्नान् करोति स्म परन्तु जनकः एकमपि प्रशंसावचनं न वदति स्म
हा समीचीनं तत्र मुखात् इति अस्ति किमर्थं पञ्चमी तत्र
मुखस्य बहिः प्रशंसावचनम् आगच्छति अपादा
उत्तमम् अस्तु तथैव अस्ति अस्तु अग्रे
बहुधा प्रयत्नं कृतवान् अपि सः स्वस्य इच्छायाः सफलतां न प्राप्तवान् अत्रापि इच्छायाः स्वस्य षष्ठी विशेषणविशेषण भाव अस्ति
तत्र विशेषणविशेषभाव नास्ति यतोहि चिन्तयतु नाम तत्र इच्छायाः इति तत्र पदस्य लिङ्गं किं
स्त्रीलिङ्ग स्वस्य इति पुल्लिङ्ग आमामां
हा तत्र किम् अस्ति भगिनि तत्र स्वस्य यदा भवति
तत्र सम्बन्धकारकषष्ठी अस्ति स्वस्य
न न नाम कर्तुः लिङ्गम् अनुसरति तत्र
कर्तुः लिङ्गम् अनुसरति इच्छायाः सफलता तत् अस्ति स्वच्छ इच्छा इति अस्ति आमाम् आम्
तत्र
विशेषणविशेषभावः नास्ति
तत्र तत्र अन्यत् पदमस्ति तत्र स्वकीयाः इति अस्ति चेत् तत्र
पुत्रस्य इजि वन् इस् पुत्रस्य इच्छा
हा पुत्रस्य इच्छा पुत्रस्य इच्छायाः सफलता किन्तु तत्र सफलता न अभवत् इति किन्तु सः इति कर्तृपदम् अस्ति अतः तत्र सः स्वस्य इति एव भवेत् यतोहि कर्तृपदं सः
ज्ञातवान्
सफलतां न प्राप्तवान् नाम तत्र प्रयत्नम् अभवत् किन्तु तत्र
जनकः जनकः प्रशंसां न कृतवान् एव कदापि न कृतवान्
कदापि न कृतवान् अतः सः इदानीं तत्र तस्य मानसिकस्थितिः कथम् अस्ति इति वयम् अवगन्तुं शक्नुमः सः बहु दुःखितः अस्ति अहं प्रयत्नं कृतवान् किन्तु किम् इति अस्तु समीचीनम् अस्तु तर्हि अग्रे तत्र नरेश महोदय अग्रे
एकदा पुत्रः महता परिश्रमेण एकं विग्रहं निर्मितवान् अत्रापि महता परिश्रमेण तत्तु तृतीयविभक्ति अस्ति विशेषणं विशेष्यम् अस्ति पुत्रः एकं विग्रहं निर्मितवान् अत्र महता परिश्रमेण अस्ति सः परिश्रम करोति स्म तदा विग्रहं निर्मितवान् अग्रे मित्रद्वारा तं विग्रहं जनकस्य समीपं प्रेषितवान् जनकस्य प्रतिस्पन्दं यातुं रहस्यस्थले स्थितवान् च पुत्रः निर्मितवान् परन्तु एक मित्रद्वारा तत्र जनकस्य समीपं प्रेषितवान् सः स्वयं न जनकं दर्शितवान् परन्तु मित्रद्वारा तस्य समीपं प्रेषितवान् जनकस्य प्रतिस्पन्दं यातुं रहस्यस्थले स्थितवान् च
किं वदति तत्र तस्य आलोचनं किं भवति किं किं वदति इति नाम प्रतिस्पन्दं
प्रतिस्पन्दं तत्र
रियाक्षन्
तत्र स्थितवान्
रहस्यस्थले सः स्थितवान् तत्र श्रोतुं तत्र प्रतिस्पन्दं ज्ञातुम् अथवा वचनं तत्र जनकस्य वचनं किं भवति इति तत् श्रोतुं सः रहस्यस्थले स्थितवान् च समीचीनम् अग्रे
जनकः तं विग्रहं दृष्ट्वा महता सन्तोषेण अहो परमसुन्दरः विग्रहः एषः तद्दृष्ट्वा जनकः अवदत् तत्तु परमसुन्दरः विग्रहः एषः
हा एषः विग्रहः अतीवसुन्दरः परमसुन्दरः अस्ति हा इति
अत्रापि
सन्तोषेण सः
महता सन्तोषेण तत्रापि तृतीयविभक्ति विशेषणविशेष्यम् अस्ति
महता सन्तोषेण समीचीनं हा महान् सन्तोषः महता सन्तोषेण समीचीनम् अग्रे
एतं निर्मितवान् कलाकारः निश्चयेन अस्ति उत्कृष्टः जनकः अवदत् एतं निर्मितवान् यः कलाकारः विग्रहः निर्मितवान् सः निश्चयेन उत्कृष्टः अस्ति बहु उत्तमम् अस्ति
समीचीनं यः अस्तु यः एतं यः एतं नाम किम् एतम्
एतं विग्रहं
हा यः एतं विग्रहं यः कलाकारः यः कलाकारः एतं विग्रहं निर्मितवान् सः
कृष्टः अस्ति
अस्ति हा नाम उत्तमः उत्तमः निपुणः अथवा तत्र कुशलः हा तत्र विग्रहनिर्माणकलायां निपुणः इति तादृशः उत्तमः अस्ति उत्कृष्टः एषः कलाकारः तादृश उत्कृष्टः अस्ति
हा एतादृशी प्रतिभा लोके विरला एव इति प्रशंसावचनानि उक्तवान् जनकः उक्तवान् एतादृशी प्रतिभा तु लोके बहु विरलाः अस्ति तत् प्रशंसवचनानि उक्तवान्
अतः एतादृशी
एतादृशी विरला प्रतिभा एतादृशी प्रतिभा या लोके विरला एव
तत्र प्रतिभा कस्य प्रतिभा अथवा कस्याः प्रतिभा
विग्रह निर्माणं प्रतिभा
हा नाम यः कृतवान् नाम कलाकारस्य प्रतिभा निर्माण समीचीनं तत्र विग्रहनिर्माणकलायां प्रतिभा कलाकारस्य तादृशी प्रतिभा तत्र विरला अस्ति लोके विरला नाम तत्र सामान्या नास्ति
सामान्य नास्ति
विरलतया वयं पश्यामः विरलतया दृश्यते तादृशी एतादृशी प्रतिभा इति प्रशंसावचनानि अतः प्रशंसावचनानि इदानीं तस्य मुखात्
प्रथमवारम्
समीचीनं हा तत्र अग्रे प्रायशः तत्र पठितुं तत्र क्लेशः नास्ति इति मन्ये तत्र सन्तुष्टः पुत्रः इति एव अस्ति किन्तु तत्र हा प्रिण्ट् तादृशः अस्ति अत्र मुद्रणम् अस्तु अग्रे शोभा भगिनी अग्रे पठति वा भगिनी पठितवती खलु अग्रे तत्र तर्हि हा तत्र ललिता भगिनी किञ्चित् प्रयत्नं करोति वा ओ ललिता भगिनी नास्ति इदानीम् अस्तु शुभदा भगिनी अथवा सुजाता भगिनी तत्र सुजाता भगिनी
एतत् श्रुत्वा मिरतां सन्तुष्टः पुत्रः रहस्यस्थानात् बहिः आगत्य सगर्वम् अवदत् एतत् श्रुत्वा पितस्य प्रशंसावचनं श्रुत्वा पित्रा प्रशंसावचनः
पिता
पिता
पिता इति प्रथमा विभक्ति किन्तु
का पित्रा
पित्रा इति
तृतीयः
का विभक्ति
पितुः पितुः धन्यवादः भगिनी पितुः प्रशंसावचनं श्रुत्वा नित्रां सन्तुष्टः पुत्रः बहु सन्तोषम् अनुभवान्
सन्तोषम् अनुभूतवान् सः पुत्रः
अनुभूतवान्
अतः तत्र
रहस्यस्थानात् बहिः आगत्य सगर्वम् अवदत्
गर्वयुक्तः सः तस्मिन् गर्वः आसीत् स गर्वम् अवदत् उक्तवान्
किम् उक्तवान्
अग्रिमपुटे अस्ति
अग्रिमपुटे अस्ति एतस्वा
एतस्य
सम्यक् न एतस्य विग्रहस्य निर्माणम् अहमेव कृतवान्
यस्य विग्रह तत्र एतस्य विग्रहस्य विषये भवान् उक्तवान् प्रशंसावचनानि उक्तवान्
विग्रहं पुत्र एव
अहमेव निर्मितवान्
अद्य अनन्त्यगति
तत्र अनन्त्यगति
कथया
अनन्त्यगतिकतया
भवान् प्रशंसां कृतवान् एव
नाम अद्य भवान् तु प्रशंसावचनानि उक्तवान् तत्र कथं भवान् उक्तवान् इति तत्र पुत्रः वदति अनन्यगतिकतया नाम अन्या गतिः नास्ति तादृशी परिस्थितिः भवतः आसीत् प्रशंसावचनानि न उक्त्वा स्थातुं न शक्तवान् भवान् अतः तत्र भवान् न इच्छति किन्तु प्रशंसावचनानि बहिः आगतानि अनन्यगतिकतया तत्र तृतीया अस्ति अनन्यगतिकता इति कथा तस्या तृतीया अनन्यगतिकतया तत्र अनन्यगतिकता इति भावः अनन्यगतिः यस्य नास्ति तत्र अनन्यगतिकता तत्र अनन्यगतिः यस्य नास्ति सः अनन्यगतिकः इति प्रायशः वक्तुं शक्नुमः इति मन्ये किन्तु अनन्यगतिकता इत्युक्ते तत्र तादृशी स्थितिः तत्र अन्यगतिः नास्ति अन्यगतिः नास्ति इति कृत्वा अनन्यगतिः तादृशी परिस्थितिः भवान् उक्तवान् एव प्रशंसान् कृतवान् एव
उत्कृष्टताकारणतः भवान् अत्र एकमपि दोषं दर्शयितुं न शक्तः उत्कृष्टताकारणतः उत्कृष्टता
श्रेष्ठः इति तस्य भावः उत्कृष्टता इति
कारणतः विग्रहम् उत्कृष्टता
कस्य उत्कृष्टता
विग्रहस्य
उत्कृष्टता समीचीनं विग्रहस्य उत्कृष्टता कारणतः पञ्चमी कारणतः
भवान् अत्र एकमपि
कारणात् कारणतः नाम कारणात् भवान्
कारणात् एकमपि दोषं दर्शयितुं न शक्तः एकमपि
दोषं एषः दोषः अस्ति अन्यः दोषः अस्ति इति भवान् सर्वदा वदति स्म किन्तु अद्य तादृशं किमपि भवान् न वक्तुं शक्नोति समीचीनं भगिनि हा अस्तु अस्तु
धन्यवादः
महोदय समीचीनमस्ति भगिनि अस्तु अग्रे शुभदः भगिनि
आं महोदय पुत्रस्य मुखं निर्निमेषं दृष्ट्वा जनकः क्षणात् अनन्तरं सविषादम् उक्तवान्
तावत् किञ्चित् वदतु भगिनि
यदा जनकः पुत्रस्य सगर्वं वचनं श्रुतवान् तदा सः निर्निमेषम् इत्युक्ते एकक्षणम् इति निर्निमेष इति
निर्निमेषं नाम तत्र वितौट् ब्लिङ्किङ्ग् इति तादृशम् अस्ति खलु
अस्तु
निर्निमेषं तमेव तत्र उन्मीलनं तत्र किमपि न कृत्वा नेत्रस्य तत्र तमेव दृष्ट्वा पुत्रमेव दृष्ट्वा
दृष्ट्वा जनकः क्षणात् अनन्तरं एकक्षण अनन्तरम् एकक्षण सः तत्र स्थितवान् परन्तु अन्यस्मिन् क्षणे सः उक्तवान् सविषादम् उक्तवान् नाम सखेद खेदयुक्त तस्य वचनमासीत् विषादेन सह अथवा खेदेन सह रिग्रेट्फुलि इति विषादेन सह उक्तवान् वत्स सर्वदा स्मर्तव्यं यत् गर्वः उन्नतेः बाधकः इति सर्वदा स्मर्तव्यं यत् गर्वः उन्नतेः बाधकः इति यदा उन्नतिः भवतः उन्नतिः भवति तदा तत्र गर्वः न भवेत् यतोहि तत्र गर्वः भवति
उन्नतिः इति तत्र लक्ष्यमस्ति चेत् तत्र मार्गे तत्र मार्ग अथवा गमनसमये उन्नति गमनसमये तत्र गर्वः मा भवेत्
गर्वः मा भवेत् सर्वदा नम्रता इति तस्य गुणः भवेत् इति शालीनता नम्रता इति तस्य गुणः भवेत् गर्वस्य स्थानं
उन्नतेः इति षष्टि उन्नतेः बाधकः
षष्टि आम् मतिवत् भवति उन्नतेः इति बाधकः बाधा भवति गर्वः उन्नत्याः मार्गे बाधकरूपेण भवति इति तस्य आशयः
इति अस्माभिः सर्वदा स्मर्तव्यं
सः सफलताद्वाराणि सर्वाणि पिदधाति सफलता यदि भवतः लक्ष्यः अस्ति चेत् तस्य द्वाराणि तु गर्वः अस्ति चेत् तस्य द्वाराणि तु उद्घाटितुं बहु क्लेशः भवति सफलतायाः प्राप्तिः बहु क्लेशकारकः भवति अथवा बहु कठिनं भवति यदा तत्र गर्वः भवति मार्गे
सः इत्युक्ते कः तत्र
गर्वः
हा सः गर्वः किं करोति पिददाति
सफलतायाः द्वाराणि सर्वाणि सफलताः
पिददाति अतः तत्र सफलता मार्गे तत्र न गन्तुमेव वयं शक्नुमः यत्र स्मः तत्र एव तिष्ठामः अग्रे तत्र किमपि उन्नतिः न भवति यत्र स्मः तत्र एव तिष्ठामः वयं समीचीनं हा अग्रे
अहम् एतावत् पर्यन्तं प्रशंसां न कृतवान् इति कारणतः भवतः गुणवत्तायाः वर्धनं जातम् अहम् एतावत् पर्यन्तं यदा यदा सः बहु उत्कृष्टाः विग्रहाः सः पुत्रः निर्मितवान् परन्तु तथापि जनकः तस्य प्रशंसा न कृतवान् किमर्थं चेत् तस्य गर्वः न भवेत् इति कारणं पुत्रस्य गर्वः न भवेत् गर्वः भवति चेत् तस्य उन्नतेः बाधा भवति बाधकः भवति इति कारणात् तस्य तत् मा भूत् इति विचारात् विचारस्य कारणात् सः जनकः प्रशंसां न कृतवान् इति सः वदति अहं प्रशंसां न कृतवान् तत् कारणात् एव भवतः गुणवत्तायाः वर्धनं जातं यदा अहं प्रशंसा अकरिष्यत्
उत्तमं भगिनि हा भवती इदानीं तत्र गीतासोपनस्य तत्र निपुणा अभवत् इति
वाक्यस्य पूर्तता न कृतवती महोदय
किन्तु समीचीनं भगिनि लृङ्लकारस्य उपयोगः उत्तमं
यदि अहं प्रशंसा अकरिष्यत् तदा तर्हि भवतः गुणवत्तायाः वर्धनं तदर्थं
तत्र एकमेव तत्र गुणवत्तायाः इति पदम् उत्तमं पदम् अस्ति तत्र किञ्चित् विवृणोतु तत्र गुणवत्तायाः इति
गुणवत्तायाः इत्युक्ते गुणस्य यः
प्रथमतया तत्र
विभक्तिः अस्ति
हा तत्र प्रथमतया पदस्य विभक्ति का तत्र
षष्ठी एकवचनं भवति गुणवत्ता इत्यस्य
प्रथमाविभक्तौ
गुणवत्ता इति भवति मालावत्
गुणवत्ता इति नाम तत्र गुणवत् इति यः अस्ति तस्य भावः गुणवत्ता
ओ अस्तु
गुणवान् गुणवत् इति प्रातिपदिकम् अथवा गुणवती गुणवत् इति प्रातिपदिकं तत् तस्य भावः थ प्रत्ययः गुणवत्
सत्ता इति वा महोदय
किं भगिनि
सत् सत्ता
हा तादृशं सत्य सत्यं हा तद् तदेव तादृशमेव तत्र गुणवत्ता इति भावः सत्ता गुणवत् गुणवत्ता नाम यस्य गुणः अस्ति अथवा यस्याः गुणः अस्ति तत्र तादृशी स्थितेः अथवा तादृश तत्र भावः तस्य भावः गुणवत्तायाः वर्धनं नाम गुणम् अधिकं नाम गुणः गुणस्य वर्धनम् इति तावदेव किन्तु सुन्दरमस्ति खलु गुणवत्तायाः इति गुणस्य वर्धनम् इति न उक्त्वा गुणवत्तायाः वर्धनम् इति समीचीनमस्ति भवतः गुणवत्तायाः वर्धनं जातं समीचीनं हा अग्रे
तदर्थं भवान् अहोरात्रं परिश्रमं कृतवान् अहं प्रशंसा न कृतवान् इति कारणतः भवान् चिन्तितवान् यत् मम गुणवत्ता अधिकं भवेत् येन मम जनकः मम विग्रहस्य प्रशंसा कुर्यात् इति विचारात् सः भवान् अहोरात्रं परिश्रमं कृतवान् अधिकाधिकं परिश्रम कृतवान् तस्य अहर्निशं
नाम
दिनरात्रं
दिनरात्रि अहर्निशम् अहोरात्रं समीचीनं तत्र नाम समयस्य समयम् अलक्ष्य कियत् समयः अभवत् इति तस्मिन् विषये चिन्तनं न कृत्वा यावत् अपि भवतु अहं किन्तु तत्र तस्य लक्षणमेव न करोमि अहं केवलं कार्यस्य उपरि मम अवधानं भवति इति तादृशी आसीत् भवतः स्थितिः
बहु कठिनं परिश्रमं कृतवान् तस्य लक्ष्यं तु गुणवत्तायाः वर्धनम् इति आसीत् अतः कठिनं परिश्रमं कृतवान् एतस्मात् कारणात् भवतः कौशलं प्रवृद्धम् अतः एव भवतः कौशलम् अधुना बहु
वर्धितम् अस्ति
वर्धितं बहु वर्धितम् अस्ति यदा अहं प्रशंसा कृतवान् कृतवान् आसीत् मूले एव तदा गर्वः भवतः मनसि बहु
गर्वः अभवत् अपि तत्र यत्र तत्र कुशलं कौशलं कथम् आसीत् तथैव इदानीमपि भवेत्
भवेत्
कौशलस्य वर्धनं न अभविष्यत्
न अभविष्यत् मम सकाशात् प्रशंसा प्राप्तुम् एव भवान् यदि अद्य विग्रहं कृतवान् तर्हि निश्चितं यत् एतत् भवतः अभिवर्धनस्य अवरोधाय इति मम सकाशात् प्रशंसा प्राप्तुम् एव भवान् यदि अद्य विग्रहं
मम मुखात् अथवा सकाशात् इति तत्र मम समीपे इति अर्थः सकाशात् इति अथवा नाम मम मुखात् इति अथवा मम समीपे स्थित्वा तत्र प्रशंसां प्राप्तुं नाम तत्र हा मम मुखात् तावदेव सकाशात्
मम सकाशात् प्रशंसा प्राप्तुं प्रशंसा प्राप्तुम् एव भवान् यदि अद्य विग्रहं कृतवान् तर्हि निश्चितं यत् एतत् भवतः अभिवर्धनस्य अवरोधाय इति यदि मम मुखात् प्रशंसा एव भवतः लक्ष्यम् आसीत् तेन तत् लक्ष्यं सम्मुखीकृत्य एव भवान् यदि एतत् एषः विग्रहं कृतवान् एतं विग्रहं कृतवान् तर्हि भवतः अभिवर्धनस्य अवरोधाय तर्हि भवतः प्रगतिः अथवा वर्धनम् अवरोधते अवरोधनं भवतः वर्धनस्य अवरोधं भवति
नाम तत्र स्थगनं भवति तत्र अग्रे न गच्छति तत्र केवलं तत्र विग्रहस्य निर्माणे एव अस्माकम् अवधानं भवेत् न तु प्रशंसा इति प्रशंसा तत्र कार्यस्य विषये एव अवधानं भवेत् न तु कार्यस्य तत्र कार्येण तत्र प्रशंसा भवति पितुः प्रशंसा वा अन्येषां प्रशंसा वा इति तादृशं लक्ष्यं मास्तु यदि तादृशमस्ति चेत् तत्र अभिवर्धनं न भवति एव भवतः अभिवर्धनं न भवति एव अवरोधनं तत्र अवरोधः भवति हा इति समीचीनं हा अस्तु अन्तिम तत्र वाक्यद्वयमेव अस्ति तदपि पठतु भगिनि शुभदा भगिनि शुभदा भगिनि श्रूयते वा श्रूयते वा श्रूयते वा
आम् अधुना श्रूयते वा महोदय
हा श्रूयते भगिनि
क्षम्यतां जनकस्य वचनस्य श्रवणात् पुत्रस्य लज्जा अभवत् यदा पुत्रः जनकस्य वचनं श्रुतवान् सः लज्जा अन्वभवत् स्वस्य दोषं ज्ञात्वा
कारणात् तस्मात् कारणात् श्रवणात् श्रवणस्य
श्रवणेन इति अपि वक्तुं शक्यते.
समीचीनं.
स्वस्य दोषं ज्ञात्वा सः जनकं क्षमां प्रार्थितवान्. सः स्वस्य दोषं सः ज्ञातवान् अतः जनकस्य जनकं क्षमां प्रार्थितवान् क्षमां अयाचत इत्यपि वक्तुं शक्यते.
अतः एव तत्र द्विकर्मकः खलु. जनकं क्षमां प्रार्थितवान्
प्रार्थितवान्
समीचीनम्. अस्तु अस्तु तर्हि तत्र कथायाः अवगमनं जातम् इति खलु.
आं महोदय.
आं महोदय.
अस्तु अस्तु तर्हि तत्र कथा तु पठिता एव. इदानीं तत्र तत्र भावे कर्मणि प्रयोगे तत्र किञ्चित् विश्रामः भवेत् इति कृत्वा एतां कथां पठितवन्तः. अस्तु इदानीं तत्र अग्रे तत्र किं कुर्मः तत्र शोभा भगिनी तत्र प्रश्नान् पृष्टवती तम् अपि परिशील्य तत् कुर्मः वा अथवा तत्र किञ्चित् पठामः वा तत्र किं कुर्मः
यदि समयः अस्ति चेत् उत्तरं ददाति वा महोदय.
अस्तु तत्र प्रायशः तत्र किम्
उक्तवान् एव.
सत्यं सत्यं भगिनि. अस्तु तत्र प्रायशः किञ्चित् समयः तत्र तस्मिन् विषये अपि तत्र पञ्चविंशतिनिमेषाः सन्ति. अस्तु तर्हि तत्र किं कुर्मः तत्र भवती एव तत्र भवती प्रेषितवती तत्र कुत्र अस्ति तत्र एकनिमिषः भगिनि. अस्तु प्राक्ष वर्गे पृच्छामः तत्र जनाः के के चिन्तयन्ति इति. प्रायश एतत् कुर्मः भगिनि तत्र श्लोकद्वयमस्ति तत्र यदि तत्र उत्तमः श्लोकः एव अतः तत्र अपि प्रायशः तत्र सर्वे जानन्ति श्लोकमपि इति मन्ये. अतः तत्र पश्यामः तत्र तस्मिन् विषये किञ्चित् चिन्तनं कृत्वा तदनन्तरं तत्र गीतासोपानं गच्छामः. तर्हि तत्र श्लोकः अस्ति तत्र वाट्साप् मध्ये प्रेषयामः वा किं तत्र अपि एकवारं तत्र भवती वदति वा भगिनि. अहं तत्र वाट्साप् मध्ये
महोदय तत्र प्रथमं मूकं करोति वाचालम् इति एव वदामि. तत्र तत्र मूकं तत्र मूकः इति पुंलिङ्गे अस्ति. करोति वाचालं वाचालः इति पुंलिङ्गे अस्ति. तदनन्तरं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् इति. तत्र अग्रे यत्कृपा तमहं वन्दे परमानन्द माधवम्. तत्र यत् कृपा मूकं
एकवारं भगिनि तत्र एकवारं सर्वे जनाः किञ्चित् चिन्तनं कुर्युः. अतः तत्र एकवारं तत्र पुनः एकवारं वदतु तत्र श्लोकः मूकं.
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपा तमहं वन्दे परमानन्दमाधवम् इति
प्रेषितम्. तत्र चिन्तनं किं चिन्तनं तत्र कोऽपि वक्तुम् इच्छति वा तत्र अन्वयः क्रमः वा अथवा किमपि के विषयाः अत्र सन्ति इति तत्र यः कोऽपि तत्र किञ्चित् वक्तुं शक्नोति. अतः
अहं चिन्तयामि मूकं यः वक्तुं न शक्नोति तत् सः अपि वक्तुं शक्नोति. यः गिरिं गिरिम् उपरं जातुं न शक्नोति तदपि सः अपि शक्नोति यदि प्रभुकृपा अस्ति.
समीचीनं महोदय. तथैव अर्थः सः एव अर्थः. समीचीनं. समीचीनं. अत्र तत्र वाट्साप् मध्ये अहं प्रेषितवान् तत्र मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपा तमहं वन्दे परमानन्द माधवम् अत तत्र किञ्चित् तत्र
अन्वन्दे
वदतु भगिनि
तत्र वन्दे इति क्रियापदं ततः आरभ्य
अस्तु तत्र वन्दे इति अस्ति चेत् वन्दे क्रियापदम् अस्ति चेत् तत्र कर्तृपदं किम् अस्ति
अहम् अतः तत्र अहं वन्दे
अहं कं वन्दे तर्हि
कम् इत्युक्ते तत्र माधवं तस्य विशेषणं परमानन्दम् इति भवति
अहं
तं परमानन्दं माधवम् अहं वन्दे
समीचीनं
किमर्थम् इत्युक्ते यत् कृपा इत्युक्ते तत्र यत् इति यत् इति तु नपुंसकलिङ्गे युष्मद् भवति यत् कृपा तत्र या कृपा इति नास्ति यत् कृपा इति अस्ति
यत् इति युष्मद् न भवति खलु भगिनि
न युष्मद् न भवति तत्र तद् एतदेव
यत् यत् इति केवलं तत्र प्रातिपदिकं नाम तत्र यत् यत् इति
किन्तु यत् नपुंसके एव अतः यत् कृपा इति तत्र समस्तपदम् अस्ति इति कृत्वा अन्ते कृपा इति भवति तर्हि तत्र यस्य कृपया मूकः वाचालं भवति तत्र करोति इति किं क्रियापदं मूकं तत्र वाचालं करोति इत्युक्ते तत्र कम् इत्युक्ते मूकं कम् अपि अस्ति किम् अपि अस्ति मूकः इति अस्ति अपि च वाचालः अतः तत्र तु द्वितीया एव द्वयोः मूकं वाचालं करोति किमर्थम् इति तत्र द्वे पदे पङ्गुं गिरिं लङ्घयते तत्र अपि
महोदय अत्र यत् कृपा इति प्रथमवाक्ये अस्ति चेत् भवति यत् कृपा मुखं वाचालं करोति पङ्गुं गिरिं लङ्घयते तं परमानन्दमाधवम् अहं वन्दे
तदेव महोदयं प्रेषितवती यत् कृपा मुखं वाचालं करोति अपि च पङ्गुं गिरिं लङ्घयते इति किन्तु यत् अस्ति चेत् तत्र यत् कृपा
अहं चिन्तयामि यस्य कृपा सामासिकपदं भवितुं यस्य यत् इति प्रातिपदिके आगच्छति अतः यत् कृपा
तत्र करोति इत्यस्य अन्वयः तत्र वाचालम् इति पदस्य भवति
नाम करोति इति क्रियापदं करोति
वाचालं
न कर्तृपदं किम् अस्ति
कृपा
कृपा किं करोति
मूकं वाचालं करोति
तत्र नाम मूकं वाचालं करोति नाम तत्र तादृशं भवति मूकं वाचालं भवति इति तावदेव
किन्तु तत्र द्वे अपि द्वितीये स्तः
अतः तत्र मूकम् इति तत्र मूकः कः वाचालः एव आरम्भे
किन्तु तत्र कर्मपदद्वयं भवति
किन्तु सत्यं भगिनि किन्तु सः एव एकः एव तत्र पुरुषः खलु तत्र एकः एव पुरुषः तत्र पूर्वं सः मूकः आसीत् इदानीं सः वाचालः अस्ति नाम तत्र अस्तु तत्र व्याकरणरीत्या तत्र साक्षात् कर्मपदं किम् अस्ति तत्र प्रायशः वाचालम् इति एव भवेत् खलु
आम् इति मन्ये कृपा वाचालं करोति कम् इत्युक्ते मूकम् इति भवति
अग्रे
हा तत्र तावदेव तदेव आसीत् महोदय तथा एव तत्र तदेव कृपा पङ्गुं गिरिं लङ्घयते तत्रापि तदेव तादृशमेव अस्ति पङ्गुं गिरिं लङ्घयते इति
किन्तु तत्र द्वितीयभागे भगिनी तत्र लङ्घयति इति णिच् अस्ति
लङ्घयते तत्र तु णिच् लङ्घ
अस्ति अतः तत्र कृपा साक्षात् न गिरेः तत्र
महोदय कृपया कृपया इति तृतीया भवति चेत् यस्य कृपया इति मम मस्तिष्के आगच्छति यस्य कृपया मुखं वाचालं करोति पङ्गुं गिरिं लङ्घयते इति भवति वा
तादृशचिन्तनं भवेत् भगिनि किन्तु तत्र करोति अस्ति इति कृत्वा तत्र कर्तृपदम् अपेक्षितम् अस्ति खलु अपि मूकम् इति कर्मपदमेव भवति खलु
परन्तु करोति क्रूधातु तु द्विकर्मकं नास्ति
नास्ति
अतः
तत्र तादृशप्रयोगः तत्र प्रयोगस्य नियमः तत्र वयं जानीमः खलु तत्र शुक्लीकरोति इति क्रियापदमस्ति वस्त्रमस्ति तत्र वस्त्रम् इदानीं तत्र शुद्धं नास्ति अथवा अन्यवर्ण अस्ति किन्तु तत्र शुक्लीकरोति अथवा स्पष्टीकरोति
तत्तु च्वी प्रयोग न महोदय परन्तु अत्र तु तत् न शक्यं
किन्तु तादृशप्रयोगे किं भवति वस्त्रं यद् अन्यत् वर्णस्य वस्त्रम् आसीत्
अशुक्लं शुक्लं करोति शुक्लीकरोति
इदानीं शुक्लम् अभवत् खलु शुक्लं करोति इति तादृशवर्णनं भवति वा इति प्रश्नः तन्न नाम वस्त्रं शुक्लं करोति वस्त्रं शुक्लं करोति इति प्रायशः विशेषणविशेषभावः एव तत्र अस्ति इति मन्ये किन्तु तत्र तस्मिन् विषये मम मनसि स्पष्टता नास्ति प्रष्टव्यम्
लङ्घयते इति अधुना स्पष्टं महोदय तत्र तु निश्चयेव अतः तत्र कर्मपदद्वयं भवति किन्तु
कर्मपदं
तदेव वाक्यं
न कर्मपदं द्वयं नास्ति भगिनि कर्तृपदद्वयं
हा किन्तु तत्र कर्मपदद्वयम् अपि भवति खलु महोदय तत्र माता पुत्रं पाठं पाठयति
हा किन्तु पुत्रं पाठयति तत्र पुत्रम् इति एव सः एव पठति अतः
तत्र प्रयोज्य कर्ता किन्तु
कर्तु कर्ता भगिनि कर्मपदं नास्ति तत्र माता पुत्रं पाठं पाठयति पाठम् इति एव साक्षात् कर्मपदं पुत्रः पठति किन्तु माता पाठयति अतः तत्र माता अपि कर्तृपदं पुत्रः अपि कर्तृपदम् यथा तत्र वयं दृष्टवन्तः पूर्वं किन्तु अत्र अत्रापि तत्र पङ्गुम् इति कर्तृपदं गिरिम् इति एव तत्र कर्मपदं लङ्घयते कृपा लङ्घयते कृपा अपि कर्तृपदं तत्र प्रायशः निच् अस्ति अतः तत्र कर्तृपदद्वयम् अस्ति तत्र प्रेरणाकर्तुः तत्र प्रयोजकर्तुः इति तत्र किमासीत् तत्र नामकरणं भगिनि भवती स्मरति वा
प्रयोजक अपि प्रयोज्य
अस्तु
यः प्रेरितः सः प्रयोज्यकर्ता भवति तत्र इत्युक्ते तत्र पङ्गुं गिरिम् इति द्वितीया
पङ्गुम् इति एव तत्र यः प्रेरितः अस्ति पङ्गुं प्रङ्गुः प्रेरितः अस्ति
महोदय तदेव सम्यक् इति भाति प्रयोजककर्ता प्रायोजककर्ता तथा प्रयोजककर्ता इति इत्येव इति मन्ये इति मन्ये इति
तत्र
किन्तु तत्र प्रयोज्यकर्ता कर्तारस्य अपि च
कर्तुः भगिनि कर्तारस्य इति पदं नास्ति खलु
कर्तारम् इति अस्ति
कर्तारं
कर्ता कर्तारम् इति अथवा कर्तुः इति अपि अस्ति इति मन्ये महोदय
भवत्याः पदं किं तत्र प्रातिपदिकं किं
न तत्र प्रयोज्य कर्तु कर् त्रू तत्र कर्तुः अपि द्वितीया भवति अपि च कर्मपदस्य अपि
इति अतः
तत्र द्वितीया तर्हि तत्र द्वितीया एव वा न तु
नाम भगिनि तत्र कृपा इति साक्षात् कर्ता खलु कृपा एव लङ्घयते तं प्रेरयति
तत्र अवगतं महोदय क्षम्यतां वदतु महोदय
किन्तु तत्र करोति इति स्थाने स्पष्टता नास्ति भगिनि यदि अन्य कोऽपि तत्र किञ्चित् वक्तुम् इच्छन्ति चेत् कृपया वदन्तु तत्र मूकं करोति वाचालम् इति तत्र मयापि तत्र प्रष्टव्यमस्ति तत्र प्रयोगः कीदृशः इति अस्तु अत्र अन्यः श्लोकः आसीत् भगिनि तत्र कुत्र आसीत् तत्र भवत्याः तत्र
तत्र अखण्डमण्डलाकारं महोदय
तत्र अस्तु एतत् तत्र कथं वाट्साप् मध्ये प्रेषयामः
महोदय अहमपि एकस्य श्लोकस्य अन्वयम् इच्छामि अहं कर्तुं प्रयत्नं कृतवती परन्तु न शक्नोति
अस्तु भगिनि तत्र तर्हि तत्र वदतु अथवा वाट्साप् मध्ये अपि प्रेषयतु
पूर्णमिदं पूर्णात् पूर्णमुदच्यते तत् श्लोकम्
अस्तु 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 तत्र सर्वे जानन्ति अत्र अन्य कोऽपि वदतु तर्हि
अहं तस्य अन्वयं कर्तुम् इच्छामि परन्तु न शक्नोति प्रयत्नं कृतवती
कः वदति तर्हि
पूर्णमदं महोदय
आमाम् आमां
पूर्णमद पूर्णमिदं
पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः वयं वदामः खलु
तस्य अन्वयः वा
तस्य अन्वयः अहं
तस्मिन् बहु गभीरः आध्यात्मिक आध्यात्मः अस्ति
सत्यं 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 किन्तु वयं तत्र तस्मिन् विषये न गत्वा केवलं तत्र व्याकरणरीत्या किम् अवगच्छामः इति
पूर्णम् अधः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते तत्र इत्युक्ते प्रश्नः कः
पदविभागः तु अहं कृतवती परन्तु अर्थं ज्ञातुं न शक्नोति महोदय
अर्थं तत्र गभीर
केवलं पदविभागः अहं कर्तुं शक्नोति
तर्हि तर्हि अर्थः कः इति किञ्चित् वदति वा
तत्र अधः इत्युक्ते आत्मा एव तत्र परब्रह्म ब्रह्मन् इति सः पूर्णमस्ति पूर्णम् अधः पूर्णम् इदम् इदमित्युक्ते तस्मात् आगतः माया इति यत् जानामि तत् वदामि क्षम्यतां दोषाः सन्ति चेत् पूर्णम् अधः पूर्णम् इदम् तर्हि तत्र ब्रह्मणा आगतः आगता माया पूर्णात् पूर्णम् उदच्यते पूर्णात् ब्रह्मात् अयं न एषा माया उदच्यते पूर्णस्य पूर्णम् आदाय तत्र पूर्णस्य इत्युक्ते पुनः तत्र ब्रह्मन् पूर्णम् इति इत्युक्ते तस्मिन् माया सर्वदा अस्ति एव इति कृत्वा पूर्णत्वम् इति इत्युक्ते अहं श्रुतवती ब्रह्मज्ञानी यदस्ति सः यत् सृष्टिमपि पश्यति इति तत्र इत्युक्ते तत्र पूर्णत्वं पश्यति इति श्रुतवती अतः तत्र पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते तत्र पूर्णस्य किमपि तत्र किं च्युतिः न भवति किमपि तत्र तस्मात् अपगच्छति तथा एव तिष्ठति पूर्णस्य पूर्णम् आदाय अपि पूर्णमेव अवशिष्यते तत्र यथा पूर्वम् आसीत् तथा एव सर्वदा तिष्ठति यद्यपि माया इति तस्य पूर्णत्वात् आगच्छति इति
अस्तु समीचीनं भगिनि गभीरः अर्थः एव
धन्यवादः भगिनि
ओ धन्यवादः भगिनि यत् श्रुतवती तदेव
अहं तु शुक एव रटामि किमपि न जानामि
किन्तु हा सत्यं समीचीनं भगिनि हा अस्तु उत्तमम् अस्तु तत्र तस्मिन् विषये अन्य कोऽपि तत्र अन्य कापि वक्तुम् इच्छति वा शुभदा भगिनी किञ्चित् वक्तुम् इच्छति वा अर्थः कः इति द्वितीयश्लोकस्य पूर्णम् इति
भगिनी उक्तवती महोदय
अस्तु
सा बहु सम्यक् रीत्या परन्तु मम अन्यः एकः प्रश्नः आसीत् क्षम्यताम् तत्र अन्यः एकः स्तोत्रः अस्ति खलु कराग्रे वसते लक्ष्मी करमध्ये सरस्वती करमूले तु गोविन्दं प्रभाते करदर्शनं तत्र कराग्रे वसते लक्ष्मी तत्र वसते इति किमर्थं वस् इति परस्मैपदी धातुः वसते इति किमर्थं भवति इति मम प्रश्नः
वसति एव अस्ति खलु भगिनि
न महोदय वसते
वसते
वसते वदामः तत्र वसते इति वस् इति एकः अन्यः धातुः अपि अस्ति वस आच्छादने इति तत्र वसते इति प्रथमपुरुषः बहुवचने अस्ति परन्तु लक्ष्मीः अस्ति चेत् तत्र वसते इति
पूर्णश्लोकं वदतु पुनः जानामि किन्तु
कराग्रे वसते लक्ष्मी करमध्ये सरस्वती करमूले तु गोविन्द गोविन्दः प्रभाते करदर्शनम्
तत्र अहं चिन्तितवान् तत्र नमः इति कुत्रापि भवति चेत् तत्र
तत्र सतिसप्तमी अस्ति किल
सत्सप्तमी शक्यते वा
कराग्रे वसते लक्ष्मी तत्र सतिसप्तमी यः लक्ष्मी कराग्रे अस्ति
किन्तु भगिनी वंशीसदा भगिनी तत्र वसते इति तत्र विभक्ति का सप्तमी वा
सप्तमी विभक्ति अस्ति महोदय कराग्रे सप्तमी अस्ति वसते इति सप्तमी अस्ति
किन्तु वसते
सप्तमी भगिनि कस्य सप्तमी कस्य शब्दस्य सप्तमी प्रातिपदिकं किं
वसत् वसत् इति
भवति न भवत् इति शब्दवत्
किन्तु
वसत् वसति इति भवति
वसति हा तत्र चतुर्थी वसत् इति वसत् इति पदस्य चतुर्थी वसते इति खलु
आम् आम् चतुर्थी भवति तत्र तत्र तत् सः अर्थः नास्ति महोदय तत्र वसनम् इति अर्थे एव अस्ति किमर्थं चेत् कराग्रे तत्र लक्ष्मीः वसति इति अर्थे एव अस्ति तत्तु परन्तु वसते इति वयं वदामः सर्वदा परन्तु अहं न प्राप्तवती कुत्र कुतः वसते इति आगच्छति
अस्तु भगिनि अहं पृच्छामि तत्र अस्तु एतदपि पृच्छामि तत्र मूकं करोति वाचालम् इति एकः प्रश्नः अपि तत्र वसते इति किमर्थम् इति अस्तु
तत्र अखण्डमण्डलाकारम् अपि एकवारं वदामि महोदय
वदतु भगिनि
तत्र श्लोकः अस्ति अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः तस्य अन्वयः एतादृशं कृतवती तस्मै श्रीगुरवे नमः येन तत्पदं दर्शितं यत् अखण्डमण्डलाकारम् अस्ति येन चराचरं व्याप्तम् अस्ति इति तर्हि तत्र यत् अखण्डमण्डलाकारम् अस्ति तत्र भवान् उक्तवान् अकर्मकधातुः अतः यत् अखण्डमण्डलाकारं तत्र तदेव मण्डलाकारः इति अपि भवितुम् अर्हति तत्र किन्तु तत्र द्वितीया अस्ति अतः कर्मपदं नास्ति इति वा
कर्मपदं नास्ति भगिनि तत्र अस् धातुः अस्ति अतः
न भवितुम् अर्हति किन्तु तत्र अखण्डमण्डला आकारः इति
तत्र त्रिषु लिङ्गेषु भवति, अत्र नपुंसकलिङ्गं स्वीकृतं
नपुंसकलिङ्गे यत् इति अस्ति इति कृत्वा नपुंसकलिङ्गे तत्र. अपि च येन चराचरं व्याप्तम् इति, तत्र व्याप्तम् इति अस्ति येन इत्यस्य चराचरेण इति भवति,
येन
तत्र चराचरं व्याप्तं कृतवान् इत्युक्ते येन तत् पदम् अथवा तत्र अन्ते तस्मै श्रीगुरवे नमः अस्ति. किं तत्र कं दर्शितवान् गुरुः इत्युक्ते तत् पदं दर्शितवान् इति, येन तत् पदं दर्शितम् इति, तत् इति तत्र नपुंसके लिङ्गे एव अस्ति, यत् अखण्डमण्डलाकारम् अस्ति, अपि च येन चराचरं व्याप्तम् अस्ति. तत्र पुनः व्याप्तम् इति नपुंसकलिङ्गे तान्तपदम्, अतः चराचरम् इति नपुंसकलिङ्गे भवति इति मन्ये तत्र महोदय.
यत् अखण्डमण्डलाकारम् अस्ति, येन चराचरं व्याप्तम् अस्ति, तत् पदं दर्शितवान् श्रीगुरुः, अथवा येन गुरुणा श्रीगुरुणा दर्शितमस्ति तत् पदम्, तादृशगुरुः यः अस्ति तस्मै श्रीगुरवे नमः.
किन्तु तत्र अखण्डमण्डलाकारः इति पुंलिङ्गे अस्ति चेत् तस्य नपुंसक न भवति, तत्र द्वितीया भवति
भगिनी. त्रिषु लिङ्गेषु भवति तत, तेन किम्?
ओ, तत्र त्रिषु लिङ्गेषु भवति वा आकारः इति?
सुन्दरः बालकः अस्ति, सुन्दरी बालिका अस्ति, सुन्दरं पुस्तकम् अस्ति.
अस्तु महोदय, तत्
अत्र किम् अपेक्षितं तदेव भवेत् खलु. तत्र अन्येषु लिङ्गेषु अस्ति चेत् अस्तु.
अपि च तत्र दर्शितम् इति तान्तपदं नपुंसकलिङ्गे, अतः तत् पदम्
पदम्
दर्शितम् इति स्वीकृतं, पदम् इति नपुंसकलिङ्गे, अतः दर्शितम् इति स्वीकृतं तत्र. तत् अधुना तत्र स्पष्टता अस्ति. आम् महोदय,
पदं दर्शितं, येन दर्शितं गुरुणा, येन गुरुणा तत्पदं दर्शितं तस्मै श्रीगुरवे नमः. अथ तत्र यः सः इति वाक्यं यद् जानीमः, तादृशवाक्यं तत्र द्विवारम् आगच्छति, नाम यत् अखण्डमण्डलाकारम् अस्ति तेन चराचरं व्याप्तम् अस्ति इति प्रथमभागः. तद् किमस्ति? तत् पदमस्ति. अपि येन तत् पदं दर्शितम् अस्ति तस्मै श्रीगुरवे नमः. तत्र यः सः द्वितीयभागे येन अपि तस्मै इति तत्र गुरुः इति कर्ता अथवा तत्र तेन इति तस्मै श्रीगुरवे नमः. तत्र येन इत्युक्ते गुरुणा, अपि तस्मै श्रीगुरवे, अत्र तृतीया चतुर्थी. तत्र यः सः मध्ये वयं जानीमः तत्र कापि विभक्ति भवितुम् अर्हति. प्रथमभागे या विभक्ति सा एव विभक्ति द्वितीयभागे अपि भवेत् इति नास्ति नियमः. अतः येन गुरुणा तत्पदं दर्शितं तस्मै श्रीगुरवे नमः इति तत्र यः सः इति वाक्यम्. अतः तत्र यः सः इति यत् तत् इति एकं वाक्यं, यत् येन इति वाक्यं, तदनन्तरं येन यः तत्र पुल्लिङ्गे येन, तदनन्तरं तस्मै, पुनः यः सः इति पदस्य चतुर्थी. अस्तु, श्लोकस्य विषये तत्र चर्चा समीचीनम् एव आसीत् अद्य. धन्यवादः भगिनी.
धन्यवादः महोदय.
अस्तु तर्हि, तत्र समयः अपि जातः, तर्हि तत्र एतत् पूर्णमद इति एकवारं कोऽपि वदेत्. तत्र शुभदा भगिनी भवती एव वदति वा अथवा हर्षदा भगिनी भवती वदतु.
आमां लटनं करोमि महोदय.
अस्तु भगिनि.
ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमः धन्यवादः सर्वेषां शोभा भगिनी धन्यवादः
धन्यवादः भगिनी धन्यवादः सर्वेषाम्
अहं तु बहु अज्ञा एव
धन्यवादः पुनर्मिलामः
पुनर्मिलामः नमस्कारः